सर्वेभ्यो नमस्कारः. वर्गम् आरम्भं कर्तुं शक्नुमः इति मन्ये. गतवर्गे वयं तमून् इति रूपस्य अभ्यासं कृतवन्तः. तत्र पठितुं, चालयितुं, गन्तुम् इति तादृशरूपाणि वयं गतवर्गे दृष्टवन्तः. अस्मिन् वर्गे तदेव किञ्चित् पुनः अभ्यासं कृत्वा अग्रे गच्छामः. तत्र एतत् सर्वं पुटसङ्ख्या कुत्र अस्ति चेत् 66, 67, 68 अभ्यासपुस्तके तत्र स्मः वयं. तत्र प्रथमतया तुमुन् इति तस्य कोष्टकं तत्र दत्तमस्ति 68 मध्ये. तत्र वेणुगोपाल् महोदय, तत्र एकवारं तत्र केवलं कोष्टकं यदस्ति 68 पेज् मध्ये उपविशति उपवेष्टुम् इति, तत् एकवारं पठति वा?
अस्तु महोदय. विशेषरूपाणि उपविशति उपवेष्टुम्
उपवेष्टुम्
अस्ति, भवति, भवितुं, गृहति,
गृह्णाति,
गृह्णाति,
ग्रहीतुं, ग्रहीतुं, ग्रहीतुं,
अस्ति, ग्रहीतुं, गृह्णाति, ग्रहीतुं, अर्हति,
आह्वयति,
अस्तु अस्तु, आह्वयति, आह्वयतुं,
आह्वातुम्,
आह्वातुम्, आह्वयति, आह्वातुम्, उत्तिष्ठति, आह्वातुम्, आह्वातुम्, उत्तिष्ठति,
उत्तिष्ठति,
उत्तिष्ठति.
तत्र महाप्राणटकारः अस्ति, टकारः महाप्राणः अस्ति.
उत्तिष्ठति, उत्तिष्ठति, उत्थातुम्, उत्थातुम्, क्रीणति,
क्रीणाति,
क्रीणाति, क्रीणाति, क्रीणाति, क्रेतुं, पिबति, पातुं, मिलति, मेलितुं,
मेलितुम् इति विशेषरूपाणि अस्ति. अस्तु, तत्र तुमुन् इति पूर्वस्मिन् पुटे 67 मध्ये तत्र अस्ति. तत्र क्रीडति, क्रीडितुं, किमर्थं गच्छति, क्रीडितुं गच्छति इति वयं दृष्टवन्तः. तत्र प्रथमतया अभ्यासः आसीत्, तत्र गृहपाठः आसीत्, तुमुन् उपयुज्य पञ्चवाक्यानि लिखतु इति. अस्तु, तत्र वंशीसुधा भगिनी, भवती वदति वा?
अस्तु महोदय. प्रथमं तुमुन् पदानि पञ्चवाक्यानि अहं वदामि. छात्राः पठितुं विद्यालयं गच्छन्ति. ते क्रेतुम् आपणः गच्छन्ति.
आपणं गच्छन्ति.
आपणं गच्छन्ति. आपणं
कर्मपदं भवति.
द्वितीयविभक्त्या
सत्यं.
जनाः स्नातुं नदीं गच्छन्ति. भक्ताः नमस्कर्तुं देवालयं गच्छन्ति.
नमस्कर्तुं.
बालकाः क्रीडितुं क्रीडाङ्गणं गच्छन्ति. इदानीं द्वौ वाक्यं त्वां प्रत्य परिवर्तनं कृत्वा
अस्तु. वेणु नरेश महोदय वदति वा?
आं महोदय. गतसप्ताहे मम मित्रं मतदानकर्तुं भारतदेशं गतवान्. अहं संस्कृतं साहित्यं पठितुम् इच्छामि. भवान् जलं पातुम् इच्छति वा? सः लेखं लेखितुं प्रयत्नं करोति. सा प्रतिदिनं सखीं मेलितुं ग्रन्थालयं गच्छति.
सख्या सह मेलितुम् अथवा सख्या मेलितुम् इति भवति महोदय. तत्र मेलितुम् इति मिलति इति अकर्मकक्रियापदम् अस्ति, अतः मित्रं मिलामि इति नास्ति, तत्र अहं मित्रेण मिलामि इति भवति रूपम्.
सख्या
सख्या सह अथवा सख्या मेलितुम् धन्यवादः महोदय. अस्तु, शोभा भगिनी वदति वा?
आं महोदय.
अस्तु,
अहमपि तत् वाक्यं
करोमि. पुनः एकवारम् अस्ति चेत् चिन्ता मास्तु, वदतु भगिनी.
सा तस्याः पुत्रीं मेलितुं न सम्यक् अस्ति वा महोदय?
पुत्रया पुत्री इति नद्या कुञ्चिकया कुञ्चिकया नदी नद्या इति भवति, नदी नद्या इति चिन्तयामि, तृतीया भवति.
पुत्रिया ओके
पुत्रिया.
सा तस्याः पुत्रिया मेलितुं बेङ्गलूरुतः मैसूरुनगरं गच्छति. अध्यापिका आसन्दे उपवेष्टुं पाठं पाठयति. उपविशति उपवेष्टुं महोदय?
न किन्तु किमपि कर्तुम् इति
कर्तुम्? ओ ओके ओके.
कृत्वा इति नास्ति खलु?
पाठितुं,
तत्र पाठितुम् उपविशति इति
पाठितुम्. अध्यापिका पाठं
पाठयितुम्
आसन्दे उपविशति. संस्कृतभाषायाः ज्ञानं वर्धितुं पठनम् अपि गृहपाठम् आवश्यकम्.
संस्कृतभाषायाः
ज्ञानं
वर्धितुं
पठनम् अपि गृहपाठम् आवश्यकम्.
समीचीनं भगिनि.
अत्र वोढुम् अपि उपयोगं कर्तुं शक्नोमि
वा?
वोढुम् सो पठनं वोढुम् अपि गृहपाठं च आवश्यकम्. शशाः मम गृहाङ्गणे मम सस्यानि चरति पदस्य किं रूपम् अस्ति महोदय? चरितुं भवति वा?
चरितुम् इति प्रायशः अस्ति इति मन्ये भगिनि.
चरितुम् आगच्छन्ति,
चलितुम् इति मनसि अस्ति, चरितुं प्रायशः सम्यक् इति मन्ये.
शास्त्राणाम् उत्तमरूपेण पठितुम् अवगन्तुं च अहं संस्कृतभाषां पठामि.
तत्र शास्त्राणाम् इति
शास्त्राणाम् उत्तमरूपेण पठितुम् अवगन्तुं च अहं संस्कृतभाषां पठामि.
समीचीनं भगिनि,
धन्यवादः महोदय.
समीचीनम्. अस्तु, अनेक कः वक्तुम् इच्छति पञ्चवाक्यानि तुमुन् उपयुज्य? भानुचेतनी महोदय वदति वा?
वदामि महोदय, किञ्चित् अनन्तरं वदामि.
अनन्तरम्? अस्तु 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 अस्तु. रमाबाई भगिनी वदति वा? अस्तु, वेणुगोपाल महोदय वदति वा?
आम् महोदय.
अस्तु अस्तु, वेणुगोपाल महोदय वदतु.
प्रथमः वाक्यः: एकस्मिन् वने एकः सरोवरः अस्ति, तत्र केचन पशवः जलं पातुम् आगच्छतः. अन्यः पशुवः तत्र एकत्र पशून् खादितुम् आगच्छन्तः. रामलक्ष्मणौ अन्यवान् वानरौ सह रावणं मारितुं लङ्कां आगच्छन्तः. मन्दिरं पूजां कर्तुं गच्छति वा?
मन्दिरे इति प्रायशः
मन्दिरे. अस्तु अस्तु, मन्दिरे. चतुर्थः वाक्यः बालकः
क्षम्यतां महोदय क्षम्यतां न भवतः वाक्यं समीचीनम् एव आसीत् पूजां कर्तुं मन्दिरं गच्छति वा इति कुर्मः
अस्तु महोदय तत्र मन्दिरं पूजां कर्तुं
न पूजां कर्तुं मन्दिरं गच्छति वा इति तादृशं रूपम् अस्ति चेत् सुलभं भवति अवगमनं तत्र किम् अस्ति पूजां कर्तुं इति क्रियापदस्य कर्मपदं भवति गच्छति इति क्रियापदस्य मन्दिरम् इति कर्मपदं भवति अतः अवगमनं सुलभं भवति
अस्तु महोदय चतुर्थः वाक्यः बालकः पित्रा सह बहु पक्षिणान् पशून् च द्रष्टुं मृगशालां गच्छति पञ्चमवाक्यः पञ्चमं वाक्यं सः पठितुं पाठशालां गच्छति
समीचीनं महोदय धन्यवादः
धन्यवादः
अस्तु नूतनतया के के आगच्छन्ति नामानि उच्यताम् गीताञ्जलि भगिनी नमस्कारः भानुचैतन्य नमस्कारः
नमस्कारः महोदय अहं प्रिया अस्मि
प्रिया भगिनी नमस्कारः
महोदय अहं
गीता भगिनी भवती पूर्वं प्रिया भगिनी वदतु किमस्ति
अहम् इदानीं वाहनं चालयामि महोदय
अस्तु अस्तु शृणोति शृणोति चेत् अस्तु 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 अस्तु
महोदय अहं वदामि
अस्तु रमाबाई भगिनी वदतु वदतु प्रिया भगिनी चिन्ता मास्तु
अहं वदामि महोदय
रमाबाई भगिनी वदतु
अहं योगाभ्यासार्थं योगाभ्यासं कर्तुं प्रातःकाले शीघ्रम् उत्थातुम् इच्छामि आरक्षकः चोरं ग्रहीतुं धावति बालकः पुस्तकं क्रेतुम् आपणं गच्छति शिशुः क्षीरं पातुम् इच्छति महिलाः प्रार्थनार्थम् एकत्र मेलितुम् इच्छन्ति अनन्तरम् अन्य एकवाक्यम् अस्ति शिष्यः गुरवे उपवेष्टुम् आसनं ददाति
गुरवे उपवेष्टुम् आसनं ददाति समीचीनं भगिनि बहु समीचीनम् अस्ति धन्यवादः भगिनि समीचीनम् अस्ति
धन्यवादः
अस्तु इदानीम् अन्य कोऽपि वदति वा
अहं वदामि
अस्तु गीता भगिनी वदतु तदनन्तरं गीताञ्जलि भगिनी वदतु
मम पौत्री पठितुं विद्यालयं गच्छति अहं गीतं गातुमिच्छामि प्रतिदिनं अहं शीघ्रं संस्कृतभाषां पठनार्थं शीघ्रं उत्थातुं प्रयत्नं करोमि सः स्नानं कर्तुं गङ्गानदीं गतवान्
समीचीनम् अस्ति धन्यवादः
सः भोजनं खादितुं मम गृहं मम गृहम् आगतवान्
समीचीनं भगिनि
आगतवान् अहं शाटिकां क्रेतुम् आपणं गच्छामि.
गच्छामि, समीचीनं भगिनि, धन्यवादः. समीचीनं,
धन्यवादः.
अस्तु, गीताञ्जलि भगिनि वदतु.
अस्तु महोदय, नमस्कारः.
नमस्कार भगिनि.
विद्यालयतः आगत्वा सर्वे बालकाः भावितुं हसितुं च मित्रैः सह उद्यानं गतवन्तः.
तत्र आगत्वा इति उक्तवती वा आगत्य इति उक्तवती वा भवती? पाठशालतः अथवा विद्यालयतः अथवा पाठशालतः?
विद्यालयतः आगत्वा.
आगत्य,
आगत्य उपसर्ग अस्ति.
सत्यं सत्यं, गच्छति, गत्वा, आगच्छति, आगत्य इति.
नद्यायाः समीपं दृष्ट्वा. नद्याः समीपं दृष्ट्वा पार्वती स्नातुं नदीं प्रवेशति.
नद्याः समीपं दृष्ट्वा,
नद्यां दृष्ट्वा,
तत्र किन्तु समीपम् इति नद्याः समीपं
नद्यां जलं दृष्ट्वा.
न न महोदय, किन्तु सा अन्यत् वक्तुम् इच्छति. सा वक्तुमिच्छति नदी समीपम् अस्ति इति दृष्ट्वा. नद्याः समीपं, तत्र नद्याः समीपं ज्ञात्वा इति प्रायशः.
षष्टिविभक्ति न सम्यक्.
समीपं, समीपः तत्र, समीपः प्रायशः तत् नामपदं, समीपम् इति कर्तुं समीपं ज्ञात्वा इति प्रायशः. रघुपतिमहोदय किं चिन्तयति, एतत् रूपं सम्यक् एव खलु?
समीपं ज्ञात्वा, सम्यक्
ज्ञात्वा, ज्ञात्वा
इति भाति,
ज्ञात्वा,
नद्यायाः सम्यक् षष्टिविभक्ति.
न न नद्याः, नद्याः एव षष्टिः अस्ति. नदी, नद्याः, भवती, भवत्याः नाम किम् एव अस्ति खलु? भवती, भवत्याः, नदी, नद्याः.
नद्याः समीपं ज्ञात्वा पार्वती स्नातुं नदीं प्रवेशति.
नदीं गच्छति इति प्रायः.
गच्छति,
प्रवेश,
प्रवेशति न सम्यक्
प्रायश. तदपि प्रवेश, तत्क्रियपदं किमस्ति? प्रवेशयति अथवा प्रवेशयति किमस्ति, कोऽपि जानाति वा तत्र क्रियापदं रूपं, सम्यक् रूपं किम् अस्ति इति?
प्रविशति अस्ति.
प्रविशति, प्रविशति, अस्तु, प्रविशति, 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 प्रवेशनं करोति अथवा प्रविशति. धन्यवादः सर्वेभ्यो. अस्तु, प्रविशति, समीचीनम्.
अवस्थानतः स्वस्य मातरम् आनयतुम् आनीतुम्
आनीतुम् इति वयं दृष्टवन्तः इति मन्ये भगिनि गत सप्ताहे. तत्र आनीतुम् अस्ति, तत्र गतवर्गे तत्र
आनीतुम् आनीतुं पुत्रः सायंकालम् अष्टवादनं गच्छति.
अष्टवादने
गच्छति. सः श्रीभगवद्गीतां स्मर्तुं प्रतिदिनं न्यूनतम् एकघण्टां तत् पठति.
स्मर्तुं न्यूनता एक घंटा तद्रूपं वा किञ्चित् चिन्तव्यम् अस्ति भगिनी तत्र न्यूना इति रूपं सम्यक् कथं करणीयम् इति कोऽपि सहायं करोति वा तत्र स्मर्तुं भगवद्गीता स्मर्तुं
प्रतिदिनं न्यूनता एकघण्टा
पठति इति प्रायशः सम्यक् अस्ति वा तत्र किञ्चित् चिन्तनं करणीयम् अस्ति भगिनि अग्रे अग्रिमः
एकः प्रश्नः अस्ति महोदय नयति तुमुन् तस्य फार्म् नेतुम् आनयति इत्युक्ते इस् इट् उपसर्ग आर् भूतकाल
उपसर्ग
देन् इट् शुड् बि ल्यप् प्रत्यय न
किन्तु तुमुन् अस्ति अत्र त्वान्त नास्ति भगिनि उपसर्ग अस्ति सत्यं किन्तु त्वान्त अस्ति चेत् ल्यप् भवति सत्यं किन्तु अत्र तुमुन् इति विषयः अस्ति
धन्यवादः
महोदय परन्तु पदमस्ति आनेतुं
अस्तु भगिनी गीताञ्जलि भगिनी अग्रे
राधा गोप्या सह दोलायितुं हसितुं च वनं गच्छति
समीचीनं भगिनि
गोप्याः सम्यक्
गोप्या सह
सूर्याय नन्तम् आचार्यः बहिः गतवान् फलानि खादितुं च परिदर्शितुं वानरः वृक्षम् आरोह्यति
आरोह्यति प्रायशः क्रियापदं समीचीनम् अस्ति वा आरोह्यति इति आरोहति अस्तु
एकः प्रश्नः महोदय रुदित्वा तुमुन् रूपं किम्
रोदितुम् इति प्रायशः अथवा
रोदितुम्
इति चिन्तयामि भगिनि रोदितुम् इति
अनन्तरं एक शयनं कर्तुं
रुदितुम् रुदितुं प्रायशः रुदितुं प्रायशः अस्ति भगिनि वाक्यं किम् अस्ति भगिनि तत्र भवत्याः
बालकः मातुः उल्लापे गन्तुं रुदित्वा नो बालकः रुदितवान् मातुः उल्लापे
रुदितुम् इति अस्ति
रुदितुं न रुदितुं नास्ति रुदितुं रुने के लिए
अस्तु भगिनि चिन्तयित्वा एतत् प्रेषयतु ईमेल् द्वारा प्रेषयतु एतदपि अन्यत् यत् न्यूनता इति न्यूना एकघण्टा इति आसीत् तत् ईमेल् द्वारा किञ्चित् चर्चां कुर्मः अस्तु
धन्यवादः
अस्तु भगिनि अस्तु अन्य कोऽपि वक्तुम् इच्छति वा
आं महोदय
रोदति इति क्रियापदम् अस्ति स्वान्तपदमस्ति रुदित्वा तुमुन् पदमस्ति रोदितुम् अस्ति
रोदितुमेव वा
रुदित्वा रुदित्वा रोदितुम्
रोदितुम् अस्तु धन्यवादः भगिनि
धन्यवादः
गीताञ्जलि भगिनि रोदितुम् इति अस्ति अस्तु धन्यवादः रोदितुम् अस्तु अस्तु बाणचैतन्य महोदय वदतु इदानीं
महोदय भगवन्तम् अर्चितुं सः देवालयं गच्छति सः डैश कैंड फाइल इति एकम् उत्तमं चलनचित्रं द्रष्टुं प्रदर्शनशालां गच्छति बालानां पाठयितुं गुरुः शीघ्रं आश्रमं प्रत्यागमिष्यति स्पर्धायां विजेताः पुरस्कारं दातुं एषः विपणीं प्रति गच्छति
तत्र पुनरेकवारं तत्र वाक्यं वदतु
स्पर्धायां विजेताः पुरस्कारं दातुं क्रेतुम् अहं चिन्तयामि तत् क्रेतुं मम आशयः अस्ति
पुनरेकवारं वदतु महोदय तत्र वाक्यं
स्पर्धायां विजेताः पुरस्कारं क्रेतुम् एषः विपणीं प्रति गच्छति
विजेतानाम् इति प्रायशः
चतुर्थी
किन्तु तत्र तुमुन् तुमुन् क्रियापदं किम् अस्ति तुमुन् रूपं किम् अस्ति
क्रेतुम्
अस्ति गच्छति
क्रेतुम् एषः विपणिं प्रति गच्छति
अस्तु किन्तु तस्य पूर्वं किम् अस्ति विजेताः इति अस्ति पुरस्कारम् इति अस्ति तदनन्तरं
विजेतेभ्यः स्पर्धायां विजेतेभ्यः पुरस्कारं दातुं
चतुर्थी चतुर्थी तदेव अहं चिन्तितवान् दातुम् अस्ति चेत् तत्र चतुर्थी
क्रेतुमपि
चतुर्थी न क्रेतुम् इति अतः पुनः एकवारं पश्यामः वाक्यं किम् अस्ति इति
स्पर्धायां
विजेता
विजेताः लिखितं तत् विजेताः पुरस्कारं दातुं
दातुं यदि दातुम् अस्ति चेत् किन्तु तत्र विजेतानां पुरस्काराणि क्रेतुं पुरस्कारं विजेतानां पुरस्काराणि अथवा पुरस्कारं क्रेतुं सः आपणम् अथवा विपणीं प्रति गच्छति इति प्रायशः रूपम् अस्ति षष्टि कर्तुं शक्नुमः यदि दातुं तत्र इच्छति चेत् इदानीं चतुर्थी विभक्ति अपेक्षितम् अस्ति तत्र
विजेतेभ्यः स्पर्धायां विजेतेभ्यः पुरस्कारं दातुम् एषः विपणीं प्रति गच्छति ग्रीष्मऋतौ झटिति धावितुं स्वास्थ्यार्थं सम्यक् नास्ति तदेव.
हा समीचीनमस्ति महोदय, धन्यवादः. अस्तु, सर्वे उक्तवन्तः इति मन्ये. अस्तु, तत्र इदानीम् एतत् अन्यत् गृहपाठः यद् आसीत् तद् कुर्मः वा? तत्र केवलम् एकम् अभ्यासः अस्ति, तत्र क्त्वान्तरूपम् अस्ति, तस्य परिवर्तनं करणीयमस्ति तून् रूपम् इति. तत्र तत्र उदाहरणम् अस्ति पुटसङ्ख्या 68 मध्ये, परिवर्तनाभ्यासः इति 31.2 मध्ये. हा, तत्र वंशीसुधा भगिनी भवती वदति वा?
वाक्यानि लिखितवती.
हा, तदेव इदानीं वदतु भगिनि.
कर्मकरी गृहं गत्वा पात्रं प्रक्षालयति इति द्वान्तरूपम् अस्ति, प्रक्षालयति. तुमुन् वाक्यमस्ति कर्मकरी पात्रं प्रक्षालयितुं गृहं गच्छति.
समीचीनं भगिनि.
भवान् आपणं गत्वा शर्कराम् आनयति, त्वान्तपदं. भवान् शर्कराम् आनयितुम् आपणं गच्छति.
आनेतुम् इति उक्तवती भवती.
आनयितुं
भवती एव पूर्वम् उक्तवती आनेतुम् इति. रूपं किम् आसीत्? कोऽपि स्मरति वा? भवती एव उक्तवती इति मन्ये.
अहं चिन्तयामि, परन्तु
अस्तु आनेतुम् इति. अस्तु अस्तु, धन्यवादः. अस्तु, अन्य कोऽपि वदति वा?
आं महोदय.
अस्तु, नरेश् महोदय वदतु.
मम भ्राता वाशिङ्ग्टन् नगरं गत्वा कार्यक्रमं दृष्टवान्. मम भ्राता कार्यक्रमं द्रष्टुं वाशिङ्ग्टन् नगरं गतवान्.
समीचीनं महोदय. समीचीनं.
सा आपणं गत्वा दुग्धं गृहीतवती. सा दुग्धं गृहीतुम् आपणं गतवती.
समीचीनं महोदय. अस्तु, अन्य कोऽपि? रघुपति महोदय वदति वा?
महोदय क्षम्यताम्.
अस्तु अस्तु अस्तु, अहं न पृष्टवान् इति कृत्वा अहं पृष्टवान्, तावदेव, चिन्ता मास्तु. अस्तु, गीता भगिनी वदति वा? अस्तु, रमाबाई भगिनी.
महोदय, बालकः गृहपाठान् लिखित्वा विद्यालयं गच्छति, स्वान्तरूपं. बालकः विद्यालयं गन्तुं गृहपाठान् लिखति. महिला अतिथि उपचारं करोति.
भगिनि, तत्र अतिथिः इति हरिशब्दवत् अस्ति. अत्र षष्ठी विभक्तिः अपेक्षितम् इति मन्ये खलु? अतिथेः उपचारं, कस्य उपचारम्?
अतिथेः उपचारं कृतवती. महिला अतिथेः उपचारं कर्तुं पाकं कृतवती.
हा, समीचीनं भगिनि, समीचीनम् अस्ति.
अन्य एकवाक्यं सम्यक् अस्ति वा महोदय? अहं गीतासोपानवर्गम् आगत्य संस्कृतेन सम्भाषणं करोमि. अहं संस्कृतेन सम्भाषणं कर्तुं गीतासोपानवर्गम् आगच्छामि.
समीचीनमस्ति भगिनि. हा, समीचीनमस्ति.
धन्यवादः.
हा, समीचीनमस्ति भगिनि. अस्तु, गीता भगिनी वदति वा?
अहम् एतेषां वाक्यानि प्रयत्नं करोमि महोदय, अभ्यास वाक्यानि. गौरी सखीगृहं गत्वा पुस्तकम् आनयति. गौरी पुस्तकम् आनेतुं सखीगृहं गच्छति.
गच्छति, समीचीनं भगिनि. अस्तु, अग्रिममपि करोतु तत्र.
चित्रकारः चित्रं लिखित्वा धनं सम्पादयति. चित्रकारः धनं सम्पादयित्वा
सम्पादयितुं
चित्रं लिखति.
लिखति, समीचीनं भगिनि, समीचीनं. धन्यवादः, धन्यवादः. समीचीनम् अस्ति. अस्तु, अन्य कोऽपि वदति वा, पृष्टुमिच्छति वा?
अहं वदामि महोदय.
शोभा भगिनि वदतु भगिनि.
जनाः आरोग्यं वर्धितुं योगासनं कुर्वन्ति. जनाः योगासनं कृत्वा आरोग्यं वर्धयन्ति. बालिका प्रातःकाले उत्थातुं घटीम् उपयुज्यति. घटीं सम्यक् अस्ति वा महोदय? घटीम् उपयुज्यति. बालिका घटीं किं पदम् अस्ति महोदय?
उपसर्गः अस्ति तत्र.
बालिका घटीम् उपयुज्य प्रातःकाले उत्तिष्ठति.
उत्तिष्ठति, समीचीनं.
तावदेव महोदय.
समीचीनं. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा?
वाक्यं वाट् इस् तुमुन् कृत्य
कस्मिन्
बालिका
तत्र शोभा भगिनी प्रथमं तुमुन् उक्त्वा तदनन्तरं क्वान्तरूपम् उक्तवती. तावदेव, तावदेव. किन्तु रूपद्वयं, वाक्यद्वयम् अस्ति तत्र.
परन्तु महोदय, किमर्थम् इति, किमर्थम् इत्युक्ते अहं इदानीं वाक्ये किमर्थम् अस्ति न महोदय. बालिका बालिका प्रातःकाले शोभा भगिनी किम् उक्तवती? बहु ध्वनिः अस्ति महोदय, मम पार्श्वे अस्ति वा न वा न जानामि.
अहं पुनः वदामि वा भगिनि?
कृपया वदतु भगिनि.
आं भगिनि, अहं उक्तवती बालिका प्रातःकाले उत्थातुं घटीम् उपयुज्यति.
शोभा भगिनि, अन्यत् वाक्यं प्रथमं वदतु, तदनन्तरम् एतत् वाक्यं वदतु.
हा महोदय, बालिका घटीम् उपयुज्य प्रातःकाले उत्तिष्ठति. बालिका प्रातःकाले उत्थातुं घटीम् उपयुज्यति.
परन्तु महोदय, एकः संशयः अस्ति, किमर्थम् इति
अत्र किमर्थं बालिका घटीम्
उपयुज्यते?
धन्यवादः. प्रातःकाले उत्थातुं,
धन्यवादः.
तत्र केवलं तत्र वाक्यस्य वाक्यद्वयम् आसीत्, किन्तु तुमुन् द्वितीयं नासीत्, प्रथमम् आसीत्. तावदेव. अस्तु अस्तु
महोदय, प्रातःकालं
प्रातःकाले उत्थातुं.
आं महोदय,
प्रातःकाले उत्थातुं.
महोदय, अन्यः सन्देहः अस्ति, तुमुन् इति द्वौ वारम् आगच्छति वा महोदय?
यत्र यथा वयं कृत्वा इति
द्वान्तप्रत्यये,
तत्र तदपि परिवर्तनं तुमुन् तुमुन् इति.
बालकः पठितुं क्रीडितुं विद्यालयं गच्छति इति सम्यक् वाक्यं महोदय?
सम्यक्,
सम्यक्,
सम्यक् अस्ति भगिनि. तत्र कुत्रापि गत्वा कार्यद्वयं करोति इति तत्र भवति खलु, तुमुन् इति. भवति भगिनि, हा अस्तु. इदानीम् अग्रे गच्छामः. तत्र 32.1 इति यत् अस्ति तत् एकवारं पठामः. तत्र गीताञ्जलि भगिनी, भवती वैद्यः अस्तु गीताञ्जलि भगिनी?
आं महोदय.
हा 32.1 तत्र भवती वैद्यः अपि कोऽपि अन्य कोऽपि कः वक्तुं वदति? अस्तु, वेणुगोपाल् महोदय उक्तवान्. अस्तु, शोभा भगिनी, भवती रोगी?
आं महोदय.
अस्तु, हा
किम् अभवत्?
ज्वरः श्रीमन्.
कदा आरभ्य?
ह्यः आरभ्य. शिरोवेदना अपि अस्ति.
आहारः रोचते वा?
आम् रोचते.
जिह्वां प्रदर्शयतु. भवतु, एतत् औषधम् एताः गुलिकाः च स्वीकरोतु.
सूच्यौषधं न आवश्यकं वा?
न, एतदेव पर्याप्तम्.
अद्य मया स्नानं कर्तुं शक्यते किल?
शक्यते, किन्तु उष्णजलेन करोतु, शीतजलेन मास्तु, यतः भवज्वरः प्रायशः शीतकारणतः एव आगतः स्यात्.
श्रीमन्, अहं श्वः स्वस्थः भविष्यामि वा?
एतत् औषधं स्वीकरोतु, निश्चयेन स्वस्थः भविष्यति भवान्.
धन्यवादः.
अस्तु, समीचीनं, धन्यवादः. अस्तु, तत्र परिशीलयामः किं किम् अस्ति इति. हा, प्रथमतः वैद्यः किं वदति, किम् अभवत्? सर्वे अवगच्छन्ति खलु, किम् अभवत्? ज्वरः श्रीमन्. तत्र श्रीमन् इति सम्बोधनरूपम् अस्ति, हा, श्रीमान् किन्तु श्रीमन् इति. कदा आरभ्य? ह्यः आरभ्य, अद्य आरभ्य इति वयं दृष्टवन्तः पूर्वम् एव. अत्र ह्यः आरभ्य. शिरोवेदना अपि अस्ति. शिरोवेदना, वेदना, शिरोवेदना, सर्वे अवगच्छन्ति खलु शिरोवेदना इत्युक्ते किम् इति. अस्तु, आहारः रोचते वा? भवते आहारः रोचते वा? आम्, मह्यम् आहारः रोचते. रोचते इति तत्र चतुर्थी विभक्ति अपेक्षितमस्ति. मह्यं, मह्यं चाकलेहः रोचते, अथवा मह्यं भगवद्गीता रोचते इति रूपं भवति. अस्तु, तत्र आहारः रोचते वा? तत्र आहारः इति कर्तृपदम् अस्ति, रोचते, किन्तु कस्मै रोचते इत्युक्ते भवते, यः रोगी अस्ति, हा, तस्मै रोचते वा इति वैद्यः पृच्छति. रोगी वदति, आम् आम्, मह्यम् आहारः रोचते. जिह्वां प्रदर्शयतु. जिह्वा इत्युक्ते किम्? भवतु, एतत् औषधम् एताः गुलिकाः च स्वीकरोतु. औषधं किम् अस्ति, गुलिका किम् अस्ति? हा, गुलिका स्त्रीलिङ्ग. गुलिका इत्युक्ते किम्? इदानीम् औषधम् एताः गुलिकाः च स्वीकरोतु इति अस्ति. स्वीकरोतु इति क्रियापदम् इव अस्ति. गुलिकाः किम् अस्ति? किन्तु तत्र स्वीकरोतु क्रियापदम् अस्ति चेत् गुलिकाः किम् अस्ति, कर्मपदं वा कर्तृपदं वा? कर्मपदं, कर्मपदं. हा, गुलिकाः रूपं सम्यक् वा?
काः? एताः गुलिकाः,
हा, द्वितीयविभक्ति अपेक्षितं खलु, किन्तु
स्त्रीलिङ्गगुलिकाः,
लता, लता, लते, लताः, लतां, लते, लताः, अतः एताः गुलिकाः समीचीनमेव अस्ति. अपि औषधं तद् नपुंसकलिङ्गे अस्ति, अतः रूपभेदः नास्ति प्रथमा वा द्वितीयाविभक्तिमध्ये. अस्तु, एतद् औषधम्, एताः गुलिकाः च स्वीकरोतु. अस्तु, तत्र जिह्वा अस्ति, जिह्वां प्रदर्शयतु, तत् कर्मपदमस्ति जिह्वाम्. सूची औषधं न आवश्यकं वा? सूची औषधं किमस्ति? इञ्जेक्षन्. सूचीयेन, सूचिया इति प्रायशः सूची, नद्या इति सूचिया, सूची औषधं न आवश्यकं वा? न, एतदेव पर्याप्तं. पर्याप्तम् इति वयं पूर्वमेव दृष्टवन्तः, एतदेव पर्याप्तम्. अद्य मया स्नानं कर्तुं शक्यते किल इति प्रश्नः. उत्तरम् अस्ति शक्यते, किन्तु उष्णजलेन करोतु, शीतजलेन मास्तु. यतः इति अग्रे आयाति, अग्रिमपुटे एव अस्ति. यतः इत्युक्ते बिकास् इति. यतः, अतः, अतः इति देर्फोर् अस्ति, किन्तु यतः अस्ति बिकास्. अस्तु अस्तु, पश्यामः. यतः भवतः ज्वरः प्रायशः शीतकारणतः एव आगतः स्यात्. तत्र आगतः कः? आगतः ज्वरः आगतः. किमर्थम् आगतः? कुतः आगतः? शीतकारणतः आगतः. अतः तत्र रूपं भवति यतः भवतः ज्वरः प्रायशः शीतकारणतः एव आगतः स्यात्. तत्र अनेकाः विसर्गाः सन्ति. यतः भवतः ज्वरः प्रायशः शीतकारणतः आगतः, किन्तु विभक्ति समानं नास्ति तत्र. अस्तु, भवतः इति षष्ठी, शीतकारणात् अपि सम्यक् अस्ति तत्र. अतः एव अहम् उक्तवान्, तत्र भवतः षष्ठी विभक्ति अस्ति, ज्वरः प्रथमा विभक्ति अस्ति, शीतकारणतः पञ्चमी विभक्ति अस्ति, आगतः प्रथमा विभक्ति अस्ति. अतः अनेकाः विसर्गाः सन्ति, किन्तु विभक्तिभेदः अस्ति तत्र.
प्रायशः इत्युक्ते किं, कः अर्थः?
तत्
प्रायश्ली अपि अस्ति वा महोदय? प्रायशः
आम् महोदय. तत्र अव्ययम् इति चिन्तयामि. अस्तु, इदानीं तत्र श्रीमन् अहं श्वः स्वस्थः भविष्यामि वा? तत्र स्वस्थः इति हेल्ति, तत्र स्त्रीलिङ्गे स्वस्था इति भवति, स्वस्थं प्रायशः नपुंसकलिङ्गे अस्ति इति मन्ये. स्वस्थः भविष्यामि वा इति प्रश्नः. वैद्यः भवति, एतत् औषधं स्वीकरोतु निश्चयेन, सर्टन्लि इति. स्वस्थः भविष्यति भवान्, धन्यवादः. किन्तु इति हवेवर्, निश्चयेन सर्टन्लि, प्रायशः प्रोबब्लि, किल इत्युक्ते, किल इत्युक्ते किम्?
इस् इट् नाट्,
इस् इट् ओर् इस् इट् नाट् इति, तत्र प्रश्नवाचक किल इति. अस्तु, तत्र सर्वे अवगच्छन्ति इति मन्ये, तत्र किमपि कोऽपि समस्या नास्ति, कापि समस्या नास्ति मन्ये. वदतु भगिनि.
निश्चयेन तृतीया विभक्ति ओर् इस् इट् अड्वर्ब्?
निश्चयेन, तत्र स्वस्थः भविष्यति, निश्चयः इति अपि रूपम् अस्ति भगिनि, निश्चयः, निश्चयः अस्ति इति चिन्तयामि. अत्र अड्वर्ब् इति भविष्यति, स्वस्थः भविष्यति इति निश्चयेन, तत्र सर्टन्लि इति, तत्र अड्वर्ब् इति तादृशरूपमेव अस्ति. तादृशरूपम् अस्ति, सत्यम्. अस्तु, अग्रे गच्छामः.
किल इति प्रयोगं कथम् इति वदतु महोदय.
रामायणं सुन्दरं ग्रन्थम् अस्ति किल, खलु इति तादृश अर्थः
महोदय. किला किला खलु भेदः अस्ति वा?
भेदः नास्ति महोदय.
एतत् अव्ययपदं वा महोदय?
किल किल अव्ययम् अस्ति, किल अव्ययम् अस्ति, खलु अपि अव्ययम् एव अस्ति.
कोष्टके चत्वारि पदानि
दत्तानि
सन्ति,
दत्तानि सन्ति, सर्वे अव्ययानि इति मन्ये. सर्वे अव्ययानि इति मन्ये भगिनि, सत्यं.
धन्यवाद.
हा, तत्र किल, हा, तत्र कर्तुं शक्यते किं महोदय?
निश्चयः, निश्चयम् एतत्तु अस्ति विभक्तिरूपम्, अतः निश्चयेन इति तृतीया वा?
हा, तदपि अस्ति, किन्तु एकमेव पदं तस्य अर्थभेदात् एकमव्ययं भवति, अन्यत् रूपं तस्य विभक्तिः भवति, तादृश अस्ति. हा, अतः अतः तत्र किञ्चित् क्लेशः अस्ति तत्र. हा, इदानीम् अव्ययम् इति चिन्तयामः, पुनरेकवारम् अहं दृष्ट्वा वदामि. भनुचति महोदय, समीचीनं वा? अहं पुनरेकवारं दृष्ट्वा वदामि. अस्तु, हा, इदानीम् अग्रे गच्छामः चेत् इति. अस्तु, तत्र चेत् इति, हा, अस्ति चेत्, तत्र धनम् अस्ति चेत् दानं करोतु इति, तादृश करोमि इति तादृश रूपम् अस्ति. चेत् इत्युक्ते इफ् इफ् इति अर्थे अस्ति चेत्. अस्तु, तत्र कोष्टकम् अस्ति, तत्र अभ्यासः. अस्तु, गीता भगिनी पठति वा तत्र 33.1, तत्र एतस्य कोष्टकस्य इति?
एतस्य कोष्टकस्य साहाय्येन वाक्यानि लिखतु. धनम् अस्ति चेत् दानं करोमि. वृष्टिः अस्ति चेत् सस्य समृद्धिः भवति.
समीचीनं भगिनि, अस्तु, धन्यवादः. इदानीं तत्र चेत् इत्युक्ते किम्? इफ् इति अर्थे, इफ् देन् इति. तत्र यदि तर्हि तादृशरूपम् अस्ति, किन्तु केवलं चेत् इति वदामः तत्र, तावदेव. अस्तु, नरेश् महोदय अग्रिमं करोति वा अत्र?
आम् महोदय. निर्वाचनम् अस्ति चेत् कोलाहल भवति.
अस्तु, सत्यं. महोदय, अन्य कोऽपि करोति? हा, धन्यवादः महोदय. अस्तु, अग्रे.
निर्वाचनम् इत्युक्ते
हा, यत् यत् इदानीं प्रचलति, हा, यत् निर्वाचनं, इलेक्षन्, इलेक्षन्. हा, अस्तु, इदानीं रघुपतिमहोदय अग्रिमं करोति वा तत्र?
धूमपानं करोति चेत्,
न सर्वम् अस्ति चेत्, अस्ति चेत्
ओके, धूमपानम् अस्ति चेत् अनारोग्यम् अनारोग्यम् अस्ति, अनारोग्यं
भवति भवति, अस्ति अपि भवति इति तादृशरूपम्. अस्तु, धन्यवादः. शोभा भगिनी अग्रिमम्.
आम् महोदय, सत्कार्यम् अस्ति चेत् कीर्तिः भवति.
हा, समीचीनं. वंशीसुधा भगिनी अग्रिमम्.
आम् महोदय, विद्युत् अस्ति चेत् दीपः ज्वलति.
हा, समीचीनं, हा, भवति. अस्तु, वेणुगोपाल् महोदय.
विद्युत् अस्ति चेत् दीपः,
तत्कृतं, तत्कृतम्. अग्रिमम् उपनेत्रम्.
उपनेत्रम् अस्ति चेत् पठति.
हा, उपनेत्रम् अस्ति चेत् सः पठति. समीचीनं महोदय. अस्तु, रमाबाई भगिनी वदति वा?
जलम् अस्ति चेत्
वस्त्रक्षालनं करोमि.
वस्त्रक्षालनं करोमि. अस्तु, समीचीनं भगिनि. अस्तु, इदानीं तत्र
महोदय एकः प्रश्नः अस्ति. धूम पदस्य अर्थं स्मोक् अस्ति. धूम्र किम् अस्ति महोदय?
धूम्र
विनायक इस् धूम्र
स्मोक्
धन्यवादः
महोदय.
महोदय एकः प्रश्नः, निर्वाचनम् इति पदं कथं निष्पन्नं महोदय? निर्वचनं महोदय,
निर्वाचनं हा द्रष्टव्यं भगिनि. तस्य उत्पन्नं तत्तु अस्माकं विषयः नास्ति.
केवलं पृच्छामि.
अस्तु, अस्तु, समीचीनमेव. किन्तु
वचनं निर्गच्छति
प्रायशः. तत् समीचीनमेव मन्ये. हा अस्तु, अस्तु, इदानीम् अग्रे गच्छामः. नो चेत् इति अस्ति. अस्तु, तत्र कः पठति? भानुचेतिनी महोदय तद् पठति वा तत्र नो चेत् इति अभ्यासः?
आम् महोदय. नो चेत् उदाहरणं दृष्ट्वा तादृशानि त्रीणि वाक्यानि लिखतु. अवकाशः भवति चेत् आगच्छतु, नो चेत् मास्तु. त्रीणि उदाहरणे.
अस्तु, अस्तु, प्रथमं धन्यवादः महोदय. हा, गीताञ्जलि भगिनी अग्रिमं पठति वा तत्र?
एतत् वस्त्रम् अल्पमूल्येन ददाति चेत् क्रीणामि, नो चेत् न.
हा, अस्तु, धन्यवादः. नरेश महोदय अग्रिमम्.
भवान् तत्र समये गच्छति चेत् लोकयानं लभ्यते, नो चेत् न लभ्यते.
हा, अस्तु, तत्र प्रश्नः अस्ति वा? नो चेत् इति रूपं कथं भवति इति सर्वे अवगच्छन्ति वा? अस्तु, चेत् इति इफ् अत्र नो चेत् इफ् नाट् अथवा अदर्वैस् इति इफ् नाट् अथवा हा प्रायशः नः नो चेत् हा प्रायशः भगिनि नो चेत् नः चेत् किन्तु किमर्थं नः न चेत् इति प्रायशः भवति खलु?
विसर्गसन्धिः न भवति. नः नश्च
नः नः नः
शकार
नो. अस्तु, हा, नो चेत् कोऽपि तत्र रूपं तदेव अस्ति भगिनि. सत्यं, किन्तु किमर्थम् एतद् रूपं? तत्तु सम्यक् प्रश्नः एव. तद् द्रष्टव्यमस्ति. सम्यक् प्रश्नः अस्ति. दृष्ट्वा वदामि भगिनि. हा, अत्र नो इति अर्थः अस्ति न इति, किन्तु तत्र नो इति केवलम् अहं नो चेत् एव दृष्टवान्. तत्र नो केवलं नो इति अस्ति इति अहं न जानामि भगिनि. नो इति अस्ति न वा?
अहं चिन्तयामि नो अव्ययः
भवति. नो इति नकारात्मकपद अस्ति इति अहं कुत्रापि पठितवान्. नो इति नो एव, इङ्ग्लिश् नो एव मीनिङ्ग् अत्र.
किन्तु तत् अव्ययम् अस्ति वा? तत् न इति तु अव्ययमस्ति. न इति अव्ययमस्ति. आम् न इति यद् वदामः तत्तु अव्ययमेव अस्ति, अतः एतत् प्रायशः एतद् न इति अर्थे अन्यद् रूपम् अस्ति इति मन्ये भगिनी गीताञ्जलि भगिनी.
महोदय, नो इत्युक्ते नाट् नाट् अस्ति वा नो अस्ति वा? नो नो नाट् अस्ति,
नाट् नाट्, हा सत्यम्, आङ्ग्लभाषायां नाट् इति अस्ति, इफ् नाट् इति, हा चेत् इति इफ् अति भवति, नो चेत् इति इफ् नाट् इति अर्थे अस्ति, किन्तु तद् नाट् अथवा नो इति हा द्रष्टव्यमस्ति. तदपि भवति, अदर्वैस्
नो चेत् नो चेत्
तदपि भवति महोदय, सत्यं, हा अतः द्रष्टव्यम् अस्ति. अस्तु, हा अस्तु, अनेकाः प्रश्नाः सन्ति, अस्तु, हा एतत् समीचीनमेव. अस्तु, तत्र वाक्यत्रयम् अपेक्षितमस्ति, कोऽपि वक्तुम् इच्छति वा नो चेत् इति?
अहं वदामि महोदय. दीपः अस्ति चेत् पठतु, नो चेत् निद्रां करोतु.
निद्रां करोतु, अस्तु, हा अहमपि वदामि, उत्तरं जानामि चेत् वदामि, नो चेत् न वदामि. अस्तु, अस्तु, अन्य कोऽपि वक्तुं?
अहं वदामि वा महोदय. परश्वः नूतन चलचित्रम् अस्ति चेत् अहं चलचित्रमन्दिरं गच्छामि, नो चेत् न.
अस्तु, हा समीचीनं, हा
अन्तर्जालम् अस्ति चेत् कृष्णफलकं द्रष्टुं शक्नोमि, नो चेत् न शक्नोमि.
न शक्नोमि, समीचीनं महोदय, अन्य कोऽपि वक्तुम् इच्छति वा?
धनमस्ति चेत् अहं क्रीणामि, नो चेत्
न. समीचीनं महोदय, अस्तु, अन्य कोऽपि?
भवान् अङ्गीकरोति चेत् अहं गच्छामि, नो चेत् न.
अस्तु, समीचीनं भगिनि, अस्तु, हा अन्य कोऽपि वक्तुमिच्छति वा? अस्तु, वदतु महोदय.
उत्तरं जानामि चेत् अहं वदामि, नो चेत् तूष्णीं भवान् तूष्णीं इच्छामि.
समीचीनं महोदय.
तूष्णीं
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 तूष्णीं तिष्ठामि वा तिष्ठामि वा
तूष्णीं तिष्ठामि
तूष्णीं भवामि
भवामि अपि भवामि
किमर्थ अर्थं किं महोदय?
तूष्णीं सैलेंट तूष्णीं तूष्णीं तिष्ठतु तूष्णीं
तूष्णीं ओके.
अस्तु, इदानीं एतत् पदं यत् आगतः पूर्वं यतः इति सम्भाषणे आगतः, यतः भवतः ज्वरः प्रायशः इति, तद् तद् पश्यामः. अस्तु, तत्र एतावत् कः वंशीसुध भगिनी भवती पठति वा तत्र यतः इति?
आं महोदय, यतः उदाहरणं दृष्ट्वा तदनुगुणं वाक्यानि परिवर्तयति. आरोग्यं सम्यक् नास्ति, अतः सः चिकित्सालयं गच्छति.
अतः इत्युक्ते अतः इत्युक्ते
therefore
इति
सः चिकित्सालयं गच्छति यतः आरोग्यं सम्यक् नास्ति.
इदानीं यतः इत्युक्ते किम्?
यतः इत्युक्ते बिकास् महोदय.
अतः तत्र यतः यथा वयं दृष्टवन्तः तुमुन्नपि क्त्वान्तरूपं तत्र सम्बद्धपदम् इति वदामः, एकस्ति चेत् अन्यत् रूपमपि भवितुम् अर्हति. तत्र वाक्यद्वयमस्ति, प्रथमं तत्र अतः इति रूपम् अस्ति, द्वितीयवाक्ये यतः इति अस्ति, तत्र परिवर्तनं भवति यतः अतः अतः इति. अस्तु, भवती एव तत्र प्रथमं करोति वा?
विद्युत् नास्ति, अतः दीपः न ज्वलति. दीपः न ज्वलति अतः विद्युत् नास्ति.
न न न तत्र अत्र पश्यतु भगिनि, आरोग्यं सम्यक् नास्ति
अतः
तत्र आरोग्यं सम्यक् नास्ति इति कास् अस्ति खलु. अतः तदनन्तरम् एफेक्ट् अस्ति.
विद्युत् नास्ति यतः दीपः न ज्वलति.
न किन्तु किन्तु भगिनि तत्र अतः इति अस्ति चेत् देर्फोर् इति अस्ति खलु, भवती
उक्तवती.
इदानीम् अतः तदनन्तरं किं भवति? देर्फोर् एफेक्ट्, कास् अस्ति एफेक्ट् अस्ति, कारणम् अस्ति कार्यम् अस्ति. अतः अस्ति चेत् प्रथमवाक्यं कारणम्, अतः इति देर्फोर् तस्य एफेक्ट् अथवा कार्यम्. इदानीं यतः अस्ति चेत् किं भवति? किमपि अभवत् किमर्थम् इति प्रश्नम् अस्ति चेत् यतः इति उत्तरं भवति. प्रथमम् इति कार्यं
दीपः न ज्वलति यतः विद्युत् नास्ति.
हा, यतः अनन्तरं कारणं भवति. सो यतः उक्त्वा कारणं वक्तव्यम्, अतः पूर्वं कारणं वक्तव्यम्. समीचीनं भगिनि. अस्तु, इदानीं कः गीताञ्जलि भगिनि प्रथमं द्वितीयं तृतीयं करोति वा तत्र?
अद्य गणेशोत्सवः अतः विद्यालयस्य विरामः अस्ति. विद्यालयस्य विरामः अस्ति यतः गणेशोत्सवः अस्ति अद्य.
अद्य गणेशोत्सवः, तदपि समीचीनं भगिनि. समीचीनं, धन्यवादः. अस्तु, वेणुगोपाल् महोदय अग्रिमम्.
अस्तु महोदय, सम्यक् न पठितवान् अतः सः परीक्षायाम् अनुत्तीर्णः.
अनुत्तीर्णः इत्युक्ते फेल्ड् इति.
सः परीक्षायाम् अनुत्तीर्णः यतः सम्यक् न पठितवान्.
अस्तु, समीचीनं. तत्र उत्तीर्णः इति विशेषणं भवति, सः उत्तीर्णः, सा उत्तीर्णा, अथवा अनुत्तीर्णः, अनुत्तीर्णा इति रूपं भवति. अस्तु, रमाबाई भगिनी अग्रिमं करोति वा?
आम् महोदय, संस्कृतं सुलभम् अतः अहं संस्कृतं पठामि. अहं संस्कृतं पठामि यतः संस्कृतं सुलभम्.
समीचीनं भगिनि. अस्तु, अग्रिमं
समीचीनवाक्यं
संस्कृतं समीचीन सुलभमेव अस्ति भगिनि.
न
न न सुलभमेव अस्ति. व्याकरणं सर्वं क्रमशः पठामश्चेत् सुलभम् एव. केवलं प्रयत्नं करणीयं. सर्वे पैथान् पठन्ति इदानीं. सुलभम् अस्ति. किन्तु तत् केवलं जीवनार्थं कर्तुं शक्नुमः. एतत्तु केवलं जीवनार्थं नास्ति खलु. अस्तु,
इत्युक्ते
उदयनः, उदय उदय इति उदय इति उदय इति नाम अस्ति. उदयनः. अस्तु, रघुपति महोदय भवानेव तत् करोति वा तत्?
उदयनः अन्यां भाषां न जानाति अतः संस्कृतेन वदति. उदयनः संस्कृतेन वदति यतः सः अन्यां भाषां न जानाति.
समीचीनम्. अस्तु अस्तु, अग्रे कः नरेश महोदय उक्तवान् वा न इति मन्ये वदतु महोदय तत्र
तस्य मूल्यम् अधिकम् अतः तत् वस्त्रं मास्तु यतः तस्य मूल्यम् अधिकम्
समीचीनम् अस्तु अस्तु इदानीं अस्तु तत्र गीता भगिनी न उक्तवती खलु भवती न पठितवती भवती कोऽपि वाक्यं वक्तुमिच्छति वा यतः इति केवलं यतः उपयुज्य कोऽपि वाक्यं अथवा अतः उपयुज्य एकं वाक्यं वदतु
अद्य वृष्टं भवति
वृष्टिः
सारी अद्य वृष्टिः भवति अतः सूर्यः न न दृश्यते सूर्यः न दृश्यते
एकनिमिषः एतदेव मास्तु पुनरेकवारं वदतु भवत्याः वाक्यं अद्य
वृष्टिः भवति
अतः वृष्टिः
अस्ति अतः सूर्यः न दृश्यते
समीचीनम् अस्तु इदानीम् अन्य कोऽपि भवत्याः वाक्यं परिवर्तनं करोति अस्तु भवती वाक्यं कृतवती अस्तु भानुचेतनी महोदय तस्य परिवर्तनं करोति वा
आं महोदय एकवारं पुनरेकवारं तत्
गीता भगिनी पुनरेकवारं भवत्याः वाक्यं वदतु
अद्य वृष्टिः भवति
अस्ति
अस्ति अतः सूर्यः न दृश्यते
यतः अद्य वृष्टिः अस्ति
समीचीनं महोदय अस्तु इदानीम् अन्य कोऽपि अस्तु शोभा भगिनी अतः इति उपयुज्य वाक्यम् एकं वदतु
आं महोदय अहं संस्कृतं न जानामि अतः एतस्य कक्ष्याम् अस्मि
कक्षायाम् अस्मि अस्तु पुनरेकवारं वाक्यं वदतु
अहं संस्कृतं न जानामि अतः एतस्य कक्षायाम् अस्मि
तत्र तत्र कक्षा इति स्त्रीलिङ्गे अस्ति अस्यां कक्षायाम् इति अस्यां
कक्षायां महोदय
अथवा सुलभम् अस्ति चेत् अस्मिन् वर्गे अस्मि
अस्मिन् वर्गे अस्मि अतः अस्मिन् वर्गे अस्मि
पुनरेकवारं वाक्यं वदतु
अहं संस्कृतं न जानामि अतः अस्मिन् वर्गे अस्मि अहम् अस्मिन् वर्गे अस्मि
परिवर्तनं मा करोतु अन्यकोऽपि भवती वाक्यं कृतवती अस्तु पुनरेकवारं प्रायशः भवती वक्तव्यम् इति मन्ये अस्तु चिन्तयामः पश्यामः कः परिवर्तनं करोति अस्तु गीताञ्जलि भगिनी भवती वाक्यस्य परिवर्तनं करोति वा
पुनः एकवारं शोभा भगिनी वाक्यं वदति
आं भगिनि अहं संस्कृतं न जानामि अतः अस्मिन् वर्गे अस्मि
अहम् अस्मिन् वर्गे अस्मि
सत्यं सत्यं अहम् अस्मिन् वर्गे अस्मि सत्यं
यतः संस्कृतं न जानामि
समीचीनं भगिनि शोभा भगिनी अङ्गीकरोति वा समीचीनम् अस्ति इति
समीचीनम् अस्ति महोदय
समीचीनम् अस्तु अस्तु वेणुगोपाल् महोदय, भवान् अपि एकं वाक्यं करोतु अतः इति उपयुज्य.
अस्तु, अद्य रविवारः अतः
रविवासरः.
अस्तु, अद्य रविवासरः अतः कार्यालयं न गच्छामि.
न गच्छामि अथवा न गतवान्? अद्य रविवासरः अथवा न गच्छामि इति स्वीकुर्मः. अद्य रविवासरः अतः कार्यालयं
गच्छामः.
न गच्छामः.
अस्तु अस्तु, न गच्छामि.
अस्तु, हा इदानीम् अस्तु. वंशी सुधा भगिनी, हा भवती परिवर्तनं करोति वा?
अद्य रविवासरः अतः कार्यालयं न गच्छामि.
अहं कार्यालयं न गच्छामि यतः अद्य रविवासरः.
हा अस्तु, समीचीनं वा वेणुगोपाल् महोदय?
अस्तु महोदय.
हा अस्तु, समीचीनम्. अस्तु, हा इदानीं रघुपति आचार्य महोदय, भवान् एकं वाक्यं वदतु य अतः उपयुज्य. अस्तु, रमाबाय् भगिनी वदति वा एकं वाक्यं?
आं महोदय, छात्राः सर्वदा क्रीडन्ति. विद्यालयाः विरामः सन्ति. छात्राः सर्वदा क्रीडन्ति.
पुनरेकवारं प्रथमवाक्यं किम् अस्ति?
विद्यालयाः विरामः अस्ति.
विद्यालयाः तत्र भवत्याः मनसि विद्यालय लिङ्गं किम् अस्ति तत्र?
विद्यालयस्य वा?
तत्र पुल्लिङ्गे 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 भवितुम् अर्हति तत्र.
विद्यालयस्य विरामः अस्ति अतः छात्राः सर्वदा क्रीडन्ति.
तत्र सर्वदा इति न, क्रीडन्ति इति.
क्रीडन्ति
सर्वदा इत्युक्ते आल् द टैम् इति खलु? इदानीं वाक्यं वदतु इदानीं पुनः एकवारं.
सर्वे इति
सर्वे न न सर्वदा
न सर्वदा इति न सर्वे इति
किन्तु तद् वक्तुम् इच्छति वा भगिनी रमाबाय् भगिनी?
सर्वे बालाः
न
विद्यालयस्य विरामः अस्ति अतः छात्राः क्रीडन्ति. छात्राः
परिवर्तनं मा करोतु, परिवर्तनं मा करोतु भगिनी. केवलम् अतः अतः इति रूपं तावदेव करणीयं.
विद्यालयस्य विरामः अस्ति अतः छात्राः क्रीडन्ति.
हा समीचीनम्. अस्तु रघुपति महोदय, भवान् अस्ति वा? अस्तु इदानीं परिवर्तनं करोतु. परिवर्तनं करोतु.
छात्राः क्रीडन्ति यतः विद्यालयस्य विरामः अस्ति.
हा समीचीनम्. अस्तु, हा इदानीं सर्वे अवगच्छन्ति खलु अतः यतः इति, तादृ तस्य किं किम् अस्ति इति अपि तस्य परिवर्तनं कर्तुं शक्नुमः इति तदपि वयं जानीमः इदानीम्. अस्तु, वदतु भगिनि. हा वदतु वदतु. हा
अधुना रात्रिः अस्ति अतः जनाः शयनं कुर्वन्ति.
अस्तु, पश्यामः अन्य कोऽपि परिवर्तनं कर्तुम् इच्छति वा इति. कः प्रयत्नं करोति? नरेश महोदय करोति. नरेश,
जनाः शयनं कुर्वन्ति यतः अधुना रात्रि अस्ति.
रात्रि अस्ति, समीचीनं. हा समीचीनं महोदय. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा? वदतु. हा शोभा भगिनी वदतु.
न महोदय, मम एकः प्रश्नः अस्ति. वृष्टिः भवति, महोदय उक्तवान् न सम्यक् अस्ति किल.
भवति
सो टु यूस् भवति टु समवन् महोदय
न भवति भवति इति तत् हा तत्र भवति इति रूपं भविष्यत्कालस्य अपि तत्र अर्थः भविष्यत्कालः अपि तस्य अर्थः अपि अस्ति वर्तमानकाल अर्थः अपि अस्ति भगिनि तत्र
किन्तु वयं वृष्टिः भवति न
अत्र किन्तु दृश्यते इति उपयोगं कृतवन्तः खलु सूर्यः न दृश्यते
अस्तु महोदय
हा दृश्यते तद् वर्तमानकाले अस्ति खलु अतः अहं चिन्तितवान् अस्तु अस्ति प्रायशः समीचीनम् अत्र
अस्तु महोदय
हा नो चेत् तत्र भविष्यत्कालम् अस्ति चेत् हा यदि वृष्टिः भवति तदा सूर्यं न द्रष्टुं शक्नुमः तादृशरूपमपि अस्ति किन्तु वर्तमानकालरूपं सुलभम् अस्ति इति कृत्वा अस्ति इति उक्तवान् तावदेव
आं महोदय अवगच्छामि महोदय धन्यवादः
हा अन्य कोऽपि प्रश्नः अथवा कोऽपि वाक्यं वक्तुम् इच्छति चेत् कृपया वदतु अस्तु यदि न वदन्ति अग्रे गच्छामः तत्र केवलं किञ्चित् समयः अस्ति अत्र शरीरस्य अवयवानां नामानि तत्र दत्तम् अस्ति अस्तु कः एतावता न पठितवान् रमाबाई भगिनी पठति वा तत्र भवती पठितवती वा पठतु
शरीरस्य अवयवानां नामानि अत्र सन्ति तानि उचिते स्थाने लिखतु केशः ललाटः कर्णः नासिका मुखं कपोलः कण्ठः वक्षस्थलं स्कन्धः भुजः अङ्गुली नखः पादः उदरं कटिः
अस्तु एकमेकं पश्यामः केशः कः वदति केशः 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 क्षम्यतां केशः क्षम्यतां हा किमस्ति हेर् अस्तु हा शिरः इत्युक्ते ललाटः इत्युक्ते फोर् हेड् अस्तु हा कर्णः इत्युक्ते नासिका मुखं मुखम् इति अत्र किम् अस्ति
अन्यत्र
अहं चिन्तयामि मुखम् इति तत्र मौत् इति अस्ति वा
प्रवेशपुस्तके मौत् अस्ति महोदय
हा मुखम् इति तत्र यतः अत्र हा वदनम् अथवा आननम् इति यदस्ति कपोलः इत्युक्ते समीचीनं कण्ठः कण्ठः
थ्रोट्
नेक् नेक् थ्रोट् वक्षस्थलं
चेस्ट्
विष्णोः वर्णने आगच्छति खलु वक्षस्थलम् इति स्कन्दः शोल्डर्स् स्कन्दः अपि भुजः स्कन्दः किम् उक्तवन्तः अस्तु
भुजबल आर्म् आर्म्
आर्म् अस्तु अङ्गुली
बाहु बाहु
फिङ्गर्स्
फिङ्गर्स् अस्तु नखः इत्युक्ते
महोदय एकः प्रश्नः अस्ति अङ्गुली
तत्र भगिनी अङ्गुली इति फिङ्गर् अस्ति पञ्च अङ्गुल्यः सन्ति तत्र अङ्गुष्ठः इति एकमस्ति
अङ्गुली
इत्युक्ते केवलं फिङ्गर् तत्र अनामिका अनामिका अस्ति कनिष्ठिका अस्ति कनिष्ठिका इति पञ्च अङ्गुल्यः समीचीनम् इदानीं नखः इत्युक्ते नृसिंहस्य वर्णने आगच्छति नखः इति
पादः
शूर्पणखः अपि पादः सत्यम् अस्तु उदरम् स्टमक् बेल्लि कटिः किं वेस्ट् समीचीनम् अस्तु इदानीं स्थापयितुं शक्नुवन्ति सर्वे इति मन्ये
एकं प्रश्नः महोदय
प्रश्नः एकः प्रश्नः वदतु महोदय
अनभिमुखस्य अभिमुखीकरणं प्रयोगे मुखमित्युक्ते मौत् मुखमित्युक्ते
मुखं मुखमिति मौत् एव इति चिन्तयामि तस्य मुखात् एतत् मया श्रुतम् इति तादृशरूपम् मुखम् इत्युक्ते मौत् इति चिन्तयामि महोदय अभिमुखम् अभिमुखं तत्र फेस् टु फेस् प्रायशः तादृश अर्थः अस्ति
अधोमुखम्
ऊर्ध्वमुखम् अस्ति
तदपि अस्ति किन्तु सत्यं किन्तु अत्र चित्रे प्रायशः मौत् इति मन्ये भगिनि
मुखम् इत्युक्ते मौत् अथवा फेस्
सत्यं किन्तु अत्र मुखमिति केवलं मौत् इति चिन्तयामि
भुजः वा बाहुः वा पर्यायपदं वा
भुजः बाहु अहं चिन्तयामि समानार्थकपदम् अभिमुखम् इति फेसिङ्ग् इति अस्ति महोदय
तद् जानामि एतत्
भुजः
आङ्ग्लभाषायां
बाहुबल
अप्पर् अप्पर् आर्म्स् इति तत् किम् अस्ति अन्यत्
महाबाहु
लिम् इति प्रायशः अस्ति महोदय बाहु इत्युक्ते लिम्ब् इति अस्ति
बाहु इत्युक्ते लिम्ब् बाहुबलि
हा लिम्ब् अथवा आर्म् इति हा
स्ट्रेंथ ऑफ आर्म
बाहु त्याम बाहु त्याम
हा
महोदय
हा
अस्तु महोदय
अस्तु हा
महोदय अङ्गुष्ठः इत्युक्ते बिग् टो आर् तम्ब् बिग् टो तम्ब् इति अङ्गुष्ठः इति
अङ्गुष्ठः इत्युक्ते तम्ब् इति मन्ये
तम्ब् बिग् टो
हा हा यत् यत् अङ्गुलि इति वदामः तत् हा
अङ्गुलि
अङ्गुलि अङ्गुलि इति
फिङ्गर्स्
फिङ्गर्स् अपि टोस् अपि
टोस् अपि
टो इत्युक्ते तदपि प्रायशः अङ्गुलि एव वा टो इत्युक्ते
बिग् टो तम् इति अस्ति स्पोकन् संस्कृत डिक्शनरि मध्ये अङ्गुष्ठः इत्युक्ते बिग् टो तम्ब् ग्रेट् टो
हा किन्तु किन्तु भगिनि तत्र हा एकं तत्र हा अङ्गुलि इति फिङ्गर् अपि भवति पादाङ्गुलि इत्युक्ते टोस् इति किन्तु अङ्गुष्ठः साधारणतया अङ्गुष्ठः इति केवलम् अङ्गुलि फिङ्गर् एव साधारणतया अस्ति किन्तु सन्दर्भानुसारं तद् बिग् टो अपि भवितुम् अर्हति अस्तु अस्तु इदानीं तत्र चित्रं पूर्णतया उचिते स्थाने लेखितुं सर्वे शक्नुवन्ति इति मन्ये अस्तु समीचीनम् अद्य बहु किमपि कृतवन्तः चेत् नो चेत् यतः अतः इति अपि किन्तु एतत् हा सर्वं कृतवन्तः समीचीनम् अस्तु अन्य कोऽपि प्रश्नः अस्ति वा
न महोदय
हा नो चेत् विरमाम
महोदय
अहं न जानामि भगिनि किन्तु अत्र अहं न जानामि भगिनि यदि अस्ति न वा इति अस्तु अस्तु समयः जातः विरमामः नमस्कारः धन्यवादः